हरे कृष्णा
वी विल लर्न टेक्स्ट 23 फ्रॉम चैप्टर 2 प्लीज रिपीट आफ्टर मी थ्री टाइम्स नैनम
नैनम नैनम नैनम
चिंदन्ति
चिंदन्ति चिंदन्ति चिंदन्ति
शस्त्राणि
शस्त्राणि शस्त्राणि शस्त्राणि
नैनम
नैनम नैनम नैनम
दहति
दहति दहति दहति
पावकः
पावकः पावकः पावकः
न चैनम
न चैनम न चैनम न चैनम
क्लेदयन्त्यापो
क्लेदयन्त्यापो क्लेदयन्त्यापो क्लेदयन्त्यापो
न शोचयति
न शोचयति न शोचयति न शोचयति
मारुतः
मारुतः मारुतः मारुतः
यू हैव एनी डाउट
यस
व्हिच लाइन
फर्स्ट लाइन सेकंड वर्ड
चिंदन्ति
चिंदन्ति चिंदन्ति चिंदन्ति
क्लियर ओके नाउ आई विल रिसाइट ईच लाइन रिपीट आफ्टर मी नैनं चिंदन्ति शस्त्राणि
नैनं चिंदन्ति शस्त्राणि नैनं चिंदन्ति शस्त्राणि नैनं चिंदन्ति शस्त्राणि
नैनं दहति पावकः
नैनं दहति पावकः नैनं दहति पावकः नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो
न चैनं क्लेदयन्त्यापो न चैनं क्लेदयन्त्यापो न चैनं क्लेदयन्त्यापो
न शोचयति मारुतः
न शोचयति मारुतः न शोचयति मारुतः न शोचयति मारुतः
नाउ आई विल रिसाइट द एंटायर वर्स नैनं चिन्तन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापो न शोचयति मारुतः
नैनं चिन्तन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापो न शोचयति मारुतः
The translation is The soul can never be cut to pieces by any weapon, nor burned by fire, nor moistened by water, nor withered by wind.